एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य संघीय सर्वकारीय सेवा विधेयकस्य प्रतिवेदने विहितायाः त्रुटेर विषये अध्ययनम् अनुसन्धानम् च विधातुम् संसदीय विशेष समितिः संघटिता वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशे सभामुखा देवराज घिमिरे समितेर घोषणाम् व्यददात्। प्रतिनिधिसभायाः नियमावल्याः अनुसारेण संसदीय विशेष समितेः संयोजक पदे नेपाली कांग्रेस दलस्य जीवन परियार सदस्येषु नेपाली कांग्रेस दलस्य पक्षत सुशील थिङ, नेकपा एमाले दलस्य पक्षत नारायण प्रसाद आचार्य, ईश्वरी घरतीज, नेकपा माओवादी केन्द्रस्य पक्षत माधव सापकोटा, राष्ट्रपा दलस्य गणेश पराजुली, राप्रपा दलस्य रोशन कार्की च वर्तन्ते। समित्या विधेयकस्य सन्दर्भे प्रतिनिधिसभा अन्तर्गतायाः राज्य व्यवस्था सुशासन समितितः प्रतिनिधिसभायाम् प्रस्तुते प्रतिवेदने समितौ सम्भूतस्य विमर्शनस्य सैद्धान्तिक सहमतेः निर्णयस्य वैधताभिलेखे विद्यमानस्य विवरणस्य विपरीततया कर्मचारिणाम् अवकाशोत्तरकालिक नियमन व्यवस्था सम्बद्धस्य विधेयके विद्यमानस्य च विषयेषु अनुसन्धानम् विधास्यते। उपवेशे सभामुखः देवराज घिमिरे प्रतिवेदनस्य लेखनादि विषयेषु विद्यमानाः न्यूनताः अन्विष्य भविष्यति तथाविध प्रकृतेः कार्याणि अवरोद्धुम् कथम् विधा सावधानताः उपायाश्च अवलम्बनीयाः सन्तीति निश्चित्य दोषिणो जनाः दण्डनीयाः न वेति परामर्शनेन सहितं प्रतिवेदनम् एकविंशतेः दिनानाम् अभ्यन्तरे प्रस्तोतुम् समित्यै कार्यादेश निर्धारितोऽस्तीति असूचयत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे कतिचिद् नेपालादिनियमान् संशोधयितुम् निर्मितम् अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् विधेयकम् प्रस्तुतमस्ति। उपवेशे प्रतिनिधिसभायाः सचिवेन हर्कराज राई इत्यनेन एतद् विक्रमवर्षीयाणाम् विनियोजन विधेयकस्य, आर्थिक विधेयकस्य, राष्ट्रऋणोत्थापन विधेयकस्य च सम्बन्धे राष्ट्रियसभातः प्राप्ताः सन्देशाः विज्ञापिताः आसन्। एवमेव ह्यस्तनोपवेशे कृषि सहकारी प्राकृतिक स्रोत समितेः एतद् विक्रमवर्षीयम् वार्षिकम् प्रतिवेदनम्, महालेखा परीक्षकस्य द्वाषष्टितमम् वार्षिकम् प्रतिवेदनम्, एतद् विक्रमवर्षीयम् राष्ट्रिय खेलकूर्द विकास प्रथम संशोधन विधेयकम् च प्रस्तुतानि वर्तन्ते। तत्पूर्वम् प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदाः वैदेशिक वृत्त्युपार्जनाय विदेशम् गतानाम् यूनाम् श्रमिकाणाम् योगदाने आधृतस्य सामाजिक सुरक्षा कोषस्य क्रियान्वयनाय नेपाल सर्वकारस्य कौटनीतिक दुर्बलतायाः कारणेन नेपाली श्रमिकाः सामाजिक सुरक्षा कोषे आबद्धाः भवितुम् सक्ताः न सन्ति। सम्प्रति वृष्ट्या जलविप्लवैश्च जनधनयोः महती क्षति प्राप्ता वर्तते। संकटे विद्यमानानि क्षेत्राणि निश्चित्य यथासमयम् पूर्वसूचना सहयोगोद्धारयोः उचित व्यवस्थापनस्य च कार्यम् सर्वकारेण विधेयम् इत्यादिषु विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने वसति। प्रधानमन्त्री केपी शर्मा ओली स्पेन देशस्य सेभिया नगरे सम्पन्नेन सम्मेलनेन आर्थिक कूटनीतये विश्वस्तरे नवीनम् सहकार्यम् सम्बद्ध्य दृढविकासस्य लक्ष्यस्य प्राप्तये च अतिरिक्तम् योगदानम् प्रदत्तमस्तीति उक्तवान् वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रधानमन्त्री ओली स्पेन देशस्य सेभिया नगरे सम्पन्ने संयुक्त राष्ट्रसंघस्य विकासाय वित्त विषयके चतुर्थान्तरराष्ट्रिय सम्मेलने नेपालस्य सहभागितायाः विषये असूचयत्। प्रधानमन्त्री ओली पश्चात्तन समये शक्तिराष्ट्राणाम् पारस्परिक द्वन्द्वस्य कारणेन संयुक्त राष्ट्रसंघस्य प्रभावकारितायाम् एव सन्देहस्य जायमानस्य अवस्थायाम् नेपालात् सर्वकार प्रमुखस्य स्तरात् सम्भूतायाः सहभागितायाः कारणेन नेपालस्य संयुक्त राष्ट्रसंघम् बहुपक्षीयताम् च प्रति ऐक्यबद्धतायाः पुनरपि पुष्टि सम्भूतास्तीति अगदत्। राष्ट्रपतिना रामचन्द्र पौडेलेन न्याय परिषद परामर्शेन सर्वोच्च न्यायालये त्रय न्यायाधीशा न्याय परिषद एका सदस्यश्च नियुक्ता सन्ति। राष्ट्रपते कार्यालयस्य प्रवक्त्र्या शैलजा रेग्मी भट्टराई इत्यनया प्रकाशिताया विज्ञप्ते अनुसारेण राष्ट्रपतिना पौडेलेन वरिष्ठाधिवक्ता मेघराज पोखरेल जनकपुरवर्तिन उच्च न्यायालयस्य मुख्य न्यायाधीश श्रीकान्त पौडेल दीपायलवर्तिन उच्च न्यायालयस्य मुख्य न्यायाधीश शान्ति सिंह थापा च न्यायाधीश पदे वरिष्ठाधिवक्ता महेश कुमार नेपाल न्याय परिषद सदस्य पदे च नियुक्ता वर्तन्ते। तत्पूर्व ह्य उपविष्टेन संसदीय श्रवण समिते उपवेशेन एतेषां नामानि अनुमोदितानि आसन्। उपभोक्तृ न्यायालयेन चिकित्सकीयाभ्यास सम्बद्धे न्यायिक प्रकरणे विहितम् दण्डनस्य निर्णयं प्रति गभीराम् असहमतिं प्रकटय्य नेपाल चिकित्सक संघेन ह्य आराष्टम चिकित्सालयेषु स्वास्थ्य संस्थासु च आकस्मिक सेवया विना अन्याः सम्पूर्ण सेवाः पीताः आसन्। देशस्यैव ज्येष्ठ चिकित्सालय सम्प्रति दैनिक रुग्णेर विना अन्यै सेवां प्राप्तुं सक्तं नास्ति। आकस्मिकीम् अत्यावश्यक सेवाम् च विना अन्यविध सेवाः प्रदातुम् शक्ताः न सन्तीति चिकित्सालयस्य निर्देशक डा दिलीप शर्मा असूचयत्। रुग्णानाम् उपचारे उपेक्षा विहितेति वितर्क्य उपभोक्तृ न्यायालयेन पश्चात्तन समये गाण्डी चिकित्सालयाय चिकित्सकेभ्यश्च सप्तपञ्चाशत् लक्षाणि एकोनविंशतिः सहस्राणि च रूप्यकाणि क्षतिस्वरूपेण दण्डयितुम् निर्णीतम् आसीत्। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति राजनीतिक स्थायित्वस्य माध्यमेन सुशासनस्य सामाजिक न्यायस्य समृद्धेः जनाकांक्षायाश्च पूरणं समेषां दायित्वं वर्तते। मानवाधिकार शान्ति समाजेन ह्य काष्ठमण्डपे आयोजितं कर्मयोगी बद्री पहाड़ी समाजसेवा नामकस्य गत विक्रम वर्षीयस्य पुरस्कारस्य समर्पण समारोहं सम्बोधयन् पूर्वेद्यो राष्ट्रपतिः पौडेलः सुशासनस्य प्रत्याभूत्या सह शान्तेः न्यायस्य स्वतन्त्रतायाश्च अनुभूतेः साधारण नागरिकेषु प्रापणस्य आवश्यकता अस्तीति प्रावोचत्। कार्यक्रमे गत विक्रम वर्षीयेण कर्मयोगी बद्री पहाड़ी समाजसेवा पुरस्कारेण सामाजिक न्यायस्य अभियानकर्मी पूर्व राजदूतश्च पद्म सुन्दास पुरस्कृतः आसीत्। नेपाली कांग्रेस दलेन संविधान संशोधनस्य विषयान् सार्थक रूपेण निष्कर्षे प्रापयितुं कार्यदलं संघटितं वर्तते। कार्यदलेन संविधान निर्माणस्य कार्य विहित सहकार्यैः राजनीतिक दलैः प्रदत्त योगदानैः विज्ञैः सम्बद्ध नागरिक समाजैश्च सह संवादः करिष्यते इति समाचारः।